ओम अथ तृतीयोऽध्यायः चञ्चुला वैराग्य वर्णनम्। शौनक उवाच सूतसूत महाभाग सर्वज्ञोऽसि महामते त्वत्प्रसादात् कृतार्थोऽहम् कृतार्थोऽहम् पुनः पुनः इतिहासमिमम् श्रुत्वा मनो मे अतीव मोदते। अन्यामपि कथाम् शम्भोर्वद प्रेम विवर्धिनीम् नामृतम् पिबताम् लोके मुक्ति क्वापि सभाज्यते। शम्भो कथासुधापानम् प्रत्यक्षम् मुक्तिदायकम् धन्या धन्या कदा शम्भोस्त्वम् धन्यो धन्य एव च। यदा कर्णनमात्रेण शिवलोकम् व्रजेन्नरः सूत उवाच शृणु शौनक वक्ष्यामि त्वदग्रे गुह्यमप्युत यतस्त्वम् शिवभक्तानामग्रणीर्वेदवित्तमः समुद्रनिकटे देशे ग्रामो भाष्कल सम्यकः वसन्ति यत्र पापिष्टा वेदधर्मोऽन्धिता जनाः दुष्टा दुर्विषयात्मानो निर्दैवा जिह्मवृत्तयः कृषीफलाः शस्त्रधराः परस्त्रीभोगिनः खलाः ज्ञानवैराग्यसद्धर्मम् न जानन्ति परम् हिते कुकथाश्रवणाढ्येषु निरता पशुबुद्धयः अन्ये वर्णा च कुदीयः स्वधर्मविमुखा खलाः कुकर्मनिरता नित्यम् सदा विषयिणश्च ते त्रियः सर्वा च कुटिला स्वैरिण्यः पापलालसाः कुधियो व्यभिचारिण्य सद्वृत्ताचारवर्जिताः एवम् कुजनसंवासे ग्रामे भाष्कलसंज्ञिते तत्रैको बिन्दुको नाम विप्र आसीन्महाधमः स दुरात्मा महापापी स सुधारोऽपि कुमार्गकः वेश्यापतिर्बभूवाथ कामाकुलितमानदः स्वपत्नीम् चञ्चुलाम् नाम हित्वा नित्यम् सुधर्मिणीम् रेमे स वेश्यया दुष्टः स्मरबानप्रपीडितः एवम् कालो व्यतीयाय महांस्तस्य कुकर्मणः सा स्वधर्मभयात् क्लेशात् स्मरार्तापी च चञ्चुला अथ तस्याङ्गनासाभिः प्ररूढनवयौवना अविशह्य स्मरावेश स्वधर्माद्विररामः जारेन सङ्गता रात्रौ रेमे पापेन सुगुप्ततः पतिदृष्टिम् वञ्चयित्वा भ्रष्टसत्त्वा कुमार्गगाम् कदाचित्ताम् दुराचाराम् स्वपत्नीम् चञ्चुला मुने जारेण सङ्गताम् रात्रौ ददर्श स्मरविह्वलाम् दृष्ट्वा ताम् दूषिताम् पत्नीम् कुकर्मासक्तमानसाम् जारेण सङ्गताम् रात्रौ क्रोधादुद्रावेगतः समागतम् गृहे दुष्टम् आज्ञाय बिन्दुगम् खलः पलायुतो धृतम् जारो वेगतश्छद्मवान् स वै अथ स बिन्दुगः पत्नीम् गृहीत्वा सुधुराशयः मुष्टिबन्धेन सन्दर्ज्य पुनः पुनरताडयत् सा नारी ताडिता भर्त्रा चञ्चुला स्वैरिणी खला कुपिता निर्भया प्राह स्वपतिम् बिन्दुगम् खलम् चञ्चुलोवाच भवान् प्रतिदिनम् कामम् रमते वेश्यया कुधीः माम् विहाय स्वपत्नीम् च युवतीम् पतिसेविनीम् रूपवत्या युवत्या च कामाकुलितचेततः विना पतिम् विहारम् स्यात् काकतिर्मे भवान् वदेत् अहम् महारूपवती नवयौवनविह्वला कदम् तहे कामदुःखम् तव सङ्गम् विनार्तधीः सूत उवाच इत्युक्तः सतया मूर्खो मूढधीर्ब्राह्मणोधमः प्रोवाच बिन्दुकः पापी स्वधर्मविमुखः खलः बिन्दुक उवाच सत्यमेतत्त्वयोक्तम् हि कामव्याकुलचेतसा इदम् वक्ष्यामि तस्मात् शृणुकान्ते भयम् त्यज जारैर्विहर नित्यम् त्वम् चेतसा निर्भयेन वै धनमाकर्षतेभ्यो हि दत्त्वा तेभ्यः परामृतिम् तद्धनम् देहि सर्वम् मे वेश्या संसक्तचेततः महत्स्वार्थम् भवे नूनम् तवापि च ममापि च सूत उवाच इति भर्तृवच श्रुत्वा चञ्चुला तद्बभूश्च सा तथेऽपि भर्तृवचनम् प्रतिजग्राह हृष्टधीः कृत्वैवम् समयम् तौ वै दम्पती दुष्टमानसौ कुकर्मनिरतौ जातौ निर्भयेन कुचेतसाम् एवम् तयो सुदम्पत्यो दुराचारप्रवृत्तयोः महान् कालो व्यधीयाय निष्फलो मूढचेतसोः अथ विप्रस्य कुमतिर्बिन्दुको वृषलीपतिः कालेन निधनम् प्राप्तो जगाम नरकम् खलः भुक्त्वा नरकदुःखानि बह्वहानि समूढधीः विन्धे भवत्पिशाचो हि गिरौ पापी भयङ्करः मृते भर्तरि तस्मिन् वै दुराचारेध बिन्दुके उवाच स्वगृहे पुत्रैश्चिरकालम् विमूढधीः एवम् विहरती जारैः सा नारी चञ्चुलाह्वयाम् आसीत् कामरता प्रीता किञ्चिदुत्क्रान्त यौवना एकदा दैवयोगेन सम्प्राप्ते पुण्यपर्वणि सा नारी बन्धुभिः साधम् गोकर्णम् क्षेत्रमाययौ प्रसङ्गात् सा तदा गत्वा कस्मिंश्चित् तीर्थपाधसि सस्नौ सामान्यतो यत्र तत्र बभ्राम बन्धुभिः देवालयेत कस्मिंश्चित् दैवज्ञमुखतः शुभाम् शुश्राव सत्कथां शम्भोः पुण्यां पौराणिकीं च तां योषितां जारसक्तानां नरके यमकिङ्कराः सन्तप्तलोहपरिघं क्षिपन्ति स्मरमन्दिरे इति पौराणिकेनोक्तां श्रुत्वा वैराग्यवर्धिनीं कथामासीद्भयोद्विघ्ना च कम्पे तत्र सा च वै कथासमाप्तौ सा नारी निर्गतेषु जनेषु च भीता रहसितं प्राहशैवं संवाचकं द्विजं चञ्चुलोवाच ब्रह्मं स्वं शृण्वसद्वृत्तम् अजानन्त्या स्वधर्मकम् श्रुत्वा मामुद्धर स्वामिः स्वामिन् कृपाम् कृत्वा तुलामपि चरितम् सुल्भनम् पापम् मया मूढधिया प्रभो नीतम् पौंशल्यतः सर्वम् यौवनम् मदनान्धया श्रुत्वेदम् वचनम् तेज्य वैराग्य रसधृम्भितम् जाता महाभयासाहम् सकम्पात वियोगिता भिङ्मा मूढधियम् पापाम् काममोहित चेतसम् निन्द्याम् दुर्विषयासक्ता विमुखीम् हि स्वधर्मतः यदल्पस्य सुखस्यार्ते स्वकार्यस्य विनाशिनः महापापम् कृतम् घोरम् अजानन्त्याति कष्टदम् यास्यामि दुर्गतिम् काम् काम् घोराम् हा कष्टदायिनीम् कोऽज्ञो यासिति माम् तत्र कुमार्गरतमानसाम् मरणे यमदूताम् स्तान् कथम् द्रक्ष्ये भयङ्करान् कथम् पाशैर्बलात् कण्ठे बध्यमानाभृतिम् लभे कथम् सहिष्ये नरके खण्डचो देहकृन्तनम् यातनाम् तत्र महतीम् दुःखदाम् च विशेषतः दिवाचेष्टामिन्द्रियाणाम् कथम् प्राप्स्यामि शोचती रात्रौ कथम् लभिष्येऽहम् निद्राम् दुःखपरिप्लुता हा हतास्मि च दग्धास्मि विदीनहृदयास्मि च सर्वथाहम् विनष्टास्मि पापिनी सर्वथाप्यहम् हा विधे मा महापापे तत्त्वा दुःखे मुषीम् हठात् अपैतीयस्तधर्मात्मै सर्वसौख्यकरादहो शूलप्रोदस्य शैलाग्रात् पततस्तुङ्गतो द्विज यद्दुःखम् देहिनो घोरम् तस्मात् कोटिगुणम् मम अश्वमेधशतम् कृत्वा गङ्गाम् स्नात्वा शतम् समाः न शुद्धिर्जायते प्रायो मत्पापस्य करीयतः किम् करोमि क्व गच्छामि कम् वा शरणमाश्रये कस्त्रायेत माम् लोके अस्मिन् पतन्तीम् नरकार्णवे त्वमेव मे गुरुर्ब्रह्मम् त्वम् माता त्वम् पितासि च उद्धरोद्धर माम् दीनाम् त्वमेव शरणम् गताम् सूत उवाच इति सञ्जात निर्वेदाम् पतिता चरणद्वये उत्थाप्य कृपया धीमान् बभाचे ब्राह्मणः सहि इति श्रीस्कान्दे शिवपुराणमाहात्म्ये चञ्चुला वैराग्यवर्णनम् नाम तृतीयोऽध्यायः ॐ